Book 2
40
40
40
Hỏi đường
Marg poochne ke liye
Marg poochne ke liye
Xin lỗi bạn
Ek minut Maaf kijiye
एक मिनट माफ कीजिए
बात giúp tôi được không
क्या आप मेरी मदद कर सकते हैं
क्या आप मेरी मदद कर सकती हैं
ở đâu có quán ăn ngon không
यहां एक अच्छा सा रेस्टोरेंट कहां है
यहां एक अच्छा सा रेस्टोरेंट कहां है
Bạn rẽ trái góc đó.
उस मोड़ पर से बाईं तरफ मुड़िए.
उस मोड़ पर से बाईं तरफ मुड़िए.
Rồi bạn đi thẳng một đoạn.
फिर थोड़े सीधे जाइए.
फिर थोड़े सीधे जाइए.
Rồi bạn rẽ phải đi 100 mét nữa.
फिर 100 मीटर दाहिनी तरफ जाइए
फिर 100 मीटर दाहिनी तरफ जाइए
Bạn cũng có thể đón xe buýt
आप बस से भी जा सकते हैं
आप बस से भी जा सकती हैं
Bạn cũng có thể đi bằng tàu điện luôn
आप ट्राम से भी जा सकते हैं
आप ट्राम से भी जा सकती हैं
Bạn cũng có thể đi theo tôi
आप मेरे पीछे भी आ सकते हैं
आप मेरे पीछे भी आ सकती हैं
Tôi đến sân bóng đá bằng đường nào
मैं फुटबॉल के स्टेडियम कैसे जाऊं
मैं फुटबॉल के स्टेडियम कैसे जाऊं
बạn đi qua cầu
पुल के उस पार जाइए
पुल के उस पार जाइए
bạn đi qua đường hầm
टनल में से जाइए
टनल में से जाइए
Bạn lái đến đèn xanh đèn đỏ thứ ba.
Tisre signal tak jaiye.
Tisre signal tak jaiye.
Rồi bạn rẽ phải đường thứ nhất.
Phir pehle raste par dahini taraf mudiye.
Phir pehle raste par dahini taraf mudiye.
Rồi bạn lái thẳng qua ngã tư tiếp theo.
Phir agle chaurahe par se seedhe jaiye.
Phir agle chaurahe par se seedhe jaiye.
Xin lỗi, tôi đến sân bay như thế nào?
Maaf kijiye, main hawai adde tak kaise jaun?
माफ कीजिए मैं हवाई अड्डे तक कैसे जाऊं
Tốt nhất là bạn đi bằng tàu điện ngầm
सबसे अच्छा मेट्रो से जाइए
सबसे अच्छा मेट्रो से जाइए
Bạn hãy đi đến trạm cuối
आखिरी स्टेशन तक जाइए
आखिरी स्टेशन तक जाइए
हãy vào trang này bạn sẽ tìm thấy quyển sách và những bài đọc kèm theo tôi nhắc lại www.book2.ge